अस्तेवसुप्रतरम् राजमस्यन्भूषम् इव प्रभारास्तोमामस्मै वाचामित्रास्तवाचमर्यो निरामयजरितः सोमहीन्द्रम् दोहेन कामुकशिक्षासकायम् प्रबोधयजरितर्जालमिन्द्रम् कोशम् न पूर्णम् वसूनान्येष्टमाच्या वयमघदेदायसूरम् किमङ्गत्वा मघवन्भोजमाहुशिषीहिमाशिशयन्त्वा शृणोमि आप्नस्वतीममधीरस्तु चक्रवसुविदम् भगमिन्द्राधाराणः स्वाञ्जना मम सत्येष्विन्द्रदन्तस्थानाभिक्वायन्ते समीपे अत्रायुषम् कृणुते यो हविष्मान्नासन्वता सख्यम् वष्टिसूराः धनम् न स्पन्द्रम् वरुणम् यो अस्मै दीव्रान् सोमान् वासुनो जिप्रयस्वान् अस्मै शत्रून् सुतुकान् प्रातरम् नो निःश्वस्तान्युपजिहन्ति वृत्रम् यस्मिन् वयम् दधिमासम् समिन्द्रेयश्विश्रायामघभाकामस्मे आराचित्सम्भजतामस्य शत्रोऽन्यस्मै द्युम्नाजन्यानमन्ताम् आराच्छत्रुमपादस्वरूनमुग्रोजस्वम्भः पुरुहूततेन अस्मै देहि यमद्गोमादिन्द्रगृहीयम् चरित्रे वाजरत्नाम् ीव्राः सोमा बहुलान्ताः स इन्द्रम् नाहदामानम् भगवानियम् सन्निसन्दतेव हतिभूरि वामम् उत प्रहामादिदेव्या जयाति कृतम् यच्छग्निवीचिनोति काले यो देवका मौनधनारुणद्धितमित्तम् राजा सृजति स्वधावान् गोभिष्टदेवामादिम् दुरे भाम्यवे नक्षुभम् पुरुहूतविस्वाम् अजम् राजाभिप्रथमाधनान्यस्माकेन वृजनेनाजयेम बृहस्पतिर्न परिपातु पश्चादुतोत्तरस्मादधनाथायोः इन्द्रः पुरस्तादुतमध्यतो नः सखासखिभ्यो वरीवक्रमोतु